एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति जलवायोः परिवर्तने भूमिका रहितैः नेपाल प्रभृतिभिर्देशैः जलवायु परिवर्तन सम्बद्ध न्यायस्य विषयः प्रत्येक मञ्चेषु उत्थापनीयः। भूगर्भिक समाजेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः जलवायु न्यायस्य विषयं जगति प्रापयितुं यत्नः करणीय इति अगदत्। राष्ट्रपति पौडेलः मानव जीवनेन सह प्रत्यक्षं सम्बद्धस्य संवेदनशील विषयस्य सम्बोधनाय राष्ट्रियान्तराष्ट्रिय स्तरेषु सहकार्यं कर्तव्यम् इत्यत्र बलं प्रादात्। प्रधानमन्त्री केपी शर्मा ओली निगदति वृत्ति उपार्जनस्य अवसराणां सर्जनत्वेन सर्वकारः अग्रे वर्धमानो वर्तते। एतद् विक्रमवर्षीयस्य राष्ट्रिय श्रम वृत्ति उपार्जन सम्मेलनस्य ह्यः उद्घाटनं विदधानः प्रधानमन्त्री ओली उत्पादनाय विकासाय च प्रविधेः अधिकतम प्रयोगं विधाय तीव्रतया उद्यमशीलतायाः विकासाय जनशक्तेः केन्द्रीकरणाय च बलं प्रादात्। प्रधानमन्त्री ओली देशे वृत्ति उपार्जनस्य अवसरान् सर्जयितुं नैजक्षेत्रं क्रियाशीलमस्तीत्यतः अत्र नैजक्षेत्रस्य भूमिका महत्वपूर्णा अस्ति इति अगदत्। श्रम वृत्ति सामाजिक सुरक्षा मन्त्री शरद सिंह भण्डारी उद्घुष्टः राष्ट्रिय वृत्ति उपार्जन कार्यक्रमः प्रभावपूर्णतया क्रियान्वेष्यते इति अभाषत। मन्त्री भण्डारी आगामिषु दशसु वर्षेषु उद्यमशीलतां संवर्ध्य सर्वकारेण श्रमशक्तेः न्यायोचित मूल्यांकनं विधास्यते इति उदैरयत्। उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी नेपालस्य वित्तीय व्यवस्थायाः गतिशीलतायाः अभावे नेपालस्य श्रमशक्तिं व्यवस्थितां कर्तुं न शक्यते इति अगदत्। कार्यक्रमे प्रधानमन्त्रिणः आर्थिक परामर्शदाता पूर्व अर्थमन्त्री च डाक्टर युवराज खतिवडा आगामिषु दशसु वर्षेषु वृत्ति उपार्जनाय कस्यापि नेपालिनः बहिर्गमनस्य आवश्यकता न भवेदिति वातावरणं निर्मातुं शक्यते इति अभाषत। सर्वकारेण आगामी 35-2000 ख्रीष्टवर्षं यावद् आन्तरवृत्ति उपार्जन प्रवर्धन दशकत्वेन उद्घुष्टो वर्तते। कार्यक्रमे राष्ट्रिय शिल्प विकास प्रतिष्ठानस्य वृत्ति उपार्जनदात्री संस्थायाश्च मध्ये संविदा पत्रे हस्ताक्षराणि विहितानि सन्ति। एवमेव प्रधानमन्त्री वृत्ति उपार्जन कार्यक्रमान्तर्गतस्य श्रमापणस्य सूचना प्रणाल्याश्च विस्ताराय श्रम वृत्ति सामाजिक सुरक्षा मन्त्रालयस्य स्विजरल्याण्ड देशस्य संस्थायाश्च मध्ये संविदा पत्रे हस्ताक्षराणि सम्भूतानि सन्ति। प्रधानमन्त्री केपी शर्मा ओली सम्पदः अधिकारः संविधाने नैव प्रदत्तोऽस्तीत्यतः निर्भयेन निवेशं कर्तुं नैज विद्यालयान् अनुरुणद्धि। प्याप्सन इति नाम्नो नैजावासीय विद्यालय संघटनस्य 16 राष्ट्रिय महाधिवेशनस्य ह्य उद्घाटनं विदधानः प्रधानमन्त्री ओली शुल्कं प्रदातुम् असमर्थानां बालबालिकानां शुल्कः सर्वकारेण प्रदीयते, तत्र नैजक्षेत्रस्यापि सहयोगः अपेक्षते इति च अभाषत। राष्ट्रियसभायाः अध्यक्षेण नारायण प्रसाद दाहालेन चत्वारि विधेयकानि प्रमाणीकृतानि सन्ति। अध्यक्षेण दाहालेन राष्ट्रियसभायाम् उत्पन्नानि गतविक्रमवर्षीयाणि सुरक्षित व्यवसाय प्रथम संशोधन विधेयकं विद्युत् व्यापार विधेयकं विधायन सम्बद्धं विधेयकञ्च 67-2000 विक्रमवर्षीयं भ्रष्टाचार निवारण प्रथम संशोधन विधेयकं च ह्य प्रमाणीकृतानि सन्ति। अध्यक्षेण दाहालेन प्रमाणीकृतानि एतानि विधेयकानि राष्ट्रपतिना प्रमाणीकर्तुम् अद्य राष्ट्रपतिः रामचन्द्र पौडेलस्य समक्षं प्रेष्यन्ते इति संसद सचिवालयेन ज्ञापितं वर्तते। न्यायालयेषु कार्यरतानां महिलानां न्यायाधीशानां कर्मचारिणां सेवाग्राहिणाञ्च अवस्थायाः आवश्यकतायाश्च अनुकूल कार्यस्थलस्य व्यवस्था प्रभृतिभिः सहितं 12-सूत्रीयं प्रतिबद्धतापत्रं प्रकाश्य एतद् विक्रमवर्षीयं द्वितीय महिला न्यायाधीश सम्मेलनं ह्य सम्पन्नमस्ति। प्रतिबद्धता पत्रे कार्यस्थले लैंगिक संवेदनशीलतां संस्थाप्य यौनजन्य हिंसायाः दुर्व्यवहारस्य रोधनं प्रति विशेष सावधानतायाः उपयुक्तोपायस्य च अवलम्बनस्य शिशुपालन केन्द्रस्य स्तनपान कक्षस्य च व्यवस्थां विधाय महिलानां सर्वांगीण विकासस्य अवसरं स्रष्टुं प्रयत्नं करिष्यते इत्युल्लिखितं वर्तते। अन्तर्राष्ट्रिय महिला न्यायाधीश दिवसस्य अवसरे आयोजिते सम्मेलने आराष्ट्रम षष्ठे न्यायाधीशानां सहभागिता आसीत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा कथयति दलम ऐकबद्धं सुदृढं च कृत्वा अग्रे नेतव्यम्। धनगढ़ी नगरे नेपाली कांग्रेस दलस्य प्रथम सुदूरपश्चिम प्रदेश सम्मेलनम् ह्य उद्घाटयन् सभापतिः देउवा समीचीन मनसा ऐक्यबद्धं सत् अग्रे वर्धिते सति कांग्रेस दलेन आगामिनि निर्वाचने बहुमतं प्राप्तुं शक्ष्यते इति उदैरयत्। सभापतिः देउवा दलाभ्यन्तरे पारस्परिक मतभेदम् असामंजस्यं च अपाकृत्य अग्रे वर्धनाय बलं प्रादात्। सम्मेलने उपसभापतिः पूर्णबहादुर खड्का दलाभ्यन्तरे सृष्टां समस्यां दलाभ्यन्तरादेव समाधाय आगामि निर्वाचने दलेन केन्द्रितेन भाव्यम् इति अवोचत्। महामन्त्री गगन थापा आगामि दशवर्षाणि कांग्रेस दलेन विकास समृद्धि वृत्त्युपार्जनञ्च समुदायस्तरे योजयित्वा अग्रे वर्धनीयमिति अगदत्। महामन्त्री विश्वप्रकाश शर्मा राजतन्त्रस्य समये जनतायाः अभिव्यक्तेः स्वतन्त्रता नासीदिति स्मरन् राष्ट्रम् अद्यतन नेपालं सम्पादयितुं कांग्रेसदलस्य अग्रणी भूमिका अस्तीति उदैरयत्। गृहमन्त्री रमेश लेखकः संविधानस्य रक्षा संघीय लोकतान्त्रिक गणतन्त्रात्मक शासन प्रणाल्याः सुदृढता समावेशी चरित्रस्य राज्यव्यवस्थायाः निर्माणस्य अद्यतनी आवश्यकता अस्तीति प्रत्यपादयत्। नेकपा एकीकृत समाजवादी दलस्य सचिवालयोपवेशेन देशे संघीय लोकतान्त्रिक गणतन्त्रस्य रक्षायै परिवर्तनस्य इच्छुकाभि सर्वाभि शक्तिभि सह सहकार्याय निर्णीतमस्ति। दलाध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायां ह्य उपविष्टेन उपवेशेन गणतन्त्रात्मक राज्यव्यवस्थां समुन्नतां विधातुं देशे वृत्त्युपार्जनं वर्धयितुं समाजवादी वितरण प्रणालीं स्थापयितुं च दलेन योजना निर्माणार्थं निर्णीतमस्तीति केन्द्रीय प्रचार विभाग प्रमुखः प्रकाश ज्वाला अज्ञापयत्। देशस्य पश्चात्तन राजनीतिकावस्थायाः राजतन्त्रस्य पक्षधरैः विहितस्य प्रदर्शनस्य दलस्य गतिविधिनांश विषये विमृष्टुम् आयोजिते उपवेशे आराष्ट्रम् सांघटनिक सुदृढीकरणाय सशक्ततया जनपरिचालनस्य कार्ययोजनायाः विषये विमृष्टमस्तीति दलेन ज्ञापितम् वर्तते। अछाम जनपदे मृद्राशेः निपत्य द्वे महिले स्मृते स्तः। अछाम जनपदस्य मंगलसेन नगरपालिकायाः नवम ओडा क्षेत्रस्य ओली ग्रामस्य रातामाटे स्थाने ह्य दिवा मृद्राशौ निपत्य सुतुडा ग्रामस्य सप्तविंशति वर्षीया देउरूपा बोहरा त्रयोविंशति वर्षीया विनीता बोहरा च मृते इति जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षकः ईश्वरी प्रसाद भण्डारी असूचयत्। गृहलेपन कार्याय मृत्तिका खननक्रमे उपरितः मृत्तिकायाः पतनेन एतयो मृत्यु सम्भूतोऽस्तीति प्रहरिणा ज्ञापितम् वर्तते। अद्य प्रातः एकादश कलोत्तर चतुर्वादने कास्की केन्द्रबिन्दु विधाय 10.3 म्याग्निच्यूड परिमाणस्य भूकम्पः दुरापन्नोऽस्तीति भूकम्पमापनानुसन्धान केन्द्रेण ज्ञापितम् वर्तते। काष्ठमण्डपस्य कतिसूचित क्षेत्रेषु मासद्वयस्य कृते निषेधाज्ञा क्रियान्विता वर्तते। काष्ठमण्डप जनपद प्रशासन कार्यालयेन परह्य रविवासरात् क्रियान्वयनत्वेन मासद्वयस्य कृते निषेधाज्ञा क्रियान्वयतेति काष्ठमण्डपस्य प्रमुख जनपदाधिकारिणा ऋषिराम तिवारिणा ज्ञापितमस्ति। राष्ट्रपतेः उपराष्ट्रपतेश्च कार्यालयोः परितः भागेषु सिंहप्रासादस्य प्रधानमन्त्री निवासस्य संसद्भवनस्य च परितः क्षेत्रे निषेधाज्ञा क्रियान्विता अस्तीति काष्ठमण्डप जनपद प्रशासन कार्यालयेन ज्ञापितमस्ति।